देशा रेडियो नेपालः सम्प्रति समाचारः श्रीयन्ताम् प्रवाचकः ध्रुव भट्टराई। प्रधानमन्त्रिणा शेरबहादुर देउवाविदस्य नेकपा माओवादी केन्द्रस्य अध्यक्षस्य पुष्पकमल दाहाल प्रचण्डस्य नेकपा एकीकृत समाजवादिन अध्यक्षस्य माधव कुमार नेपालस्य च मध्ये विमृष्टमस्ति। बालुवाटार वर्तिनी प्रधानमन्त्री निवासे गत सायं एतेषां मध्ये सामूहिक राजनीतिक विषय विमृष्टमिति दाहालस्य स्वकीय सचिव रमेश मल्ल अज्ञापयत्। असौ राष्ट्रिय सभाया आगामिनो निर्वाचनस्य स्थानीय संघीय प्रादेशिक स्तरणां निर्वाचनस्य विषयो एतेषां मध्ये विमर्शनम् अभवदिति अवोचत्। स्वकीय सचिवस्य मल्लस्य अनुसारेण आगामिनो निर्वाचनस्य विषय विमर्शनाय प्रधानमन्त्रिणा देउवाविदस्य माओवादी केन्द्रस्य अध्यक्षस्य दाहालस्य नेकपा एकीकृत समाजवादिन अध्यक्षस्य नेपालस्य च मध्ये अद्य शुक्रवासरे अपराह्नस्य चतुर्वादने सत्ता गठबन्धनस्य दलानाम् उपवेशम् आकारयितुं सहमतिर्धृता वर्तते। यः आराष्ट्रम् द्वादश सहस्राणि शतत्रयम् अष्टात्रिंशत् जना कोरोना विषाणुना संक्रान्ताः सन्ति। केवलम् काष्ठमण्डपो उपत्यकायम् षट् सहस्रेषु एकाशीत्यधिक नवशते च जनेषु कोरोना विषाणु संक्रमणम् पुष्टीभूतमिति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितमस्ति। यः ऊनपञ्चाशदधिक षट्शतम् जना कोरोना विषाणु संक्रमणात् मुक्ताः सन्ति। संक्रमणेन यः चत्वारो जना मृताः। ह्यस्तनावधि आराष्ट्रम् सप्तपञ्चाशत् सहस्राणि अष्टाविंशत्यधिक शतत्रयम् च जना सक्रिय संक्रान्ताः सन्ति। आराष्ट्रम् चतुर्दश जनपदः कोरोना विषाणुना सर्वाधिकम् प्रभाविताः सन्ति। सर्वाधिक प्रभावितेषु क्षेत्रेषु काष्ठमण्डपो उपत्यका सह मोरङ, सुनसरी, झापा, धनुषा, चितवन, मकवानपुरा, काभ्रे, पलाञ्चो, कास्की, बाँके, रूपन्देही, कैलाली च जनपदाः सन्ति। कोविड उनविंशते ओमिक्रोन नामधेयाय नवीन प्रजाति संक्रमणस्य तीव्रम् प्रसारणमनु काष्ठमण्डप जनपद प्रशासन कार्यालयेन अद्य रात्रिथ यातायात साधनानाम् समविषम प्रणाली क्रियान्वयते। काष्ठमण्डपो उपत्यकायाम् सार्वजनिक नैज यातायात साधनानि द्विचक्रिका सहितानि समदिवसे समाङ्कस्य विषमदिवसे विषमाङ्कस्य च प्रणाल्या सञ्चालयितुम् आदिष्टमिति काष्ठमण्डप जनपद प्रशासन कार्यालयस्य निमित्त प्रमुख जनपदाधिकारी सुप्रभा खनाल ढुङ्गेलः अज्ञापयत्। सार्वजनिक यातायात साधनेषु आसन क्षमतात अधिकान् यात्रिण न बोढुम् सर्वेषाम् यात्रिणाम् कृते मुखावरणिकाम् अनिवार्यम् विधातुम् यातायात साधनस्य द्वारे अभ्यन्तरे च यात्रिणाम् कृते विषाणु विनाशक द्रवस्य व्यवस्थाम् कर्तुम् च प्रशासन कार्यालयेन आदिष्टमस्ति। एवमिव जनपदस्य सर्वेषु सार्वजनिकेषु सर्वकारीयेषु च निकायेषु चक्रीय प्रणाल्या सेवा प्रवाहस्य उचित प्रबन्धनम् कार्यालय प्रमुखै विधातव्यमिति आदेशे उल्लिखितमस्ति। कोरोना विषाणु संक्रमणस्य वर्धन अनु त्रिभुवन विश्वविद्यालयस्य वार्षिक परीक्षा सत्र प्रणाल्या परीक्षाश्च स्थगितकृताः सन्ति। बल्खु स्थितेन त्रिभुवन विश्वविद्यालयस्य परीक्षा नियन्त्रण कार्यालयेन ह्यः सूचनाम् प्रकाश्य अस्यैव माघमासस्य नवम दिवसता निर्धारिता परीक्षा स्थगितकृताः सन्तीति ज्ञापितम् वर्तते। त्रिभुवन विश्वविद्यालयस्य परीक्षा सञ्चालक समिति ह्यः उपविष्टेन उपवेशेन काष्ठमण्डपो उपत्यकाय बाह्यस्थानाम् च अधिका विद्यार्थिन कर्मचारिण प्राध्यापकाश्च कोरोना विषाणुना संक्रान्ता सन्ति तथा परीक्षाणाम् स्थगनाय निर्णीतम् वर्तते। तत्पूर्वम् प्रधानमन्त्रिणा शेरबहादुर देउवाविदेन त्रिभुवन विश्वविद्यालयस्य परीक्षा केन्द्रेषु महाविद्यालयेषु च अनुगमनाय मापदण्डाभावे परीक्षा स्थगयितुम् निर्दिष्टम् आसीत्। एवमेव लोकसेवायोगेन अपि पूर्वनिर्धारिता सर्वा परीक्षा कार्यक्रम स्थगितकृता सन्ति। आयोगेन यः सूचनाम् प्रकाश्य आयोगस्य प्राय कर्मचारिषु कोरोना विषाणु संक्रमणस्य कारणम् प्रदर्श्य अस्यैव माघमासस्य अन्तम् यावत् सञ्चालनत्वेन पूर्वनिर्धारिता सर्वा परीक्षा स्थगितकृता इति ज्ञापितम् वर्तते। लिखित परीक्षायाम् विहाय पूर्वनिर्धारित कार्याणि यथावत् सञ्चालयितुम् निर्णीतम् इति आयोगेन प्रकाशितायाम् विज्ञप्तौ उल्लिखितमस्ति। चितवन जनपद प्रशासन कार्यालयेन अद्यता अस्यैव माघमासस्य चतुर्दश दिवसम् यावत् अत्यावश्यकी विहाय सेवा पिधाप्यन्ते। अद्यता शान्ति सुरक्षा न्यायिक प्रकरण सम्बद्धा विहाय सर्वा सेवा पिधाप्यन्ते इति प्रशासन कार्यालयेषु ज्ञापयति। प्रमुख जनपदाधिकारिणा आस्पन तामाङ इत्यनेन प्रकाशितायाम् अत्यावश्यक सूचनायाम् कार्यालये कार्यरता विभिन्नानाम् शाखानाम् कर्मचारिणः कोविड उनविंशत्या संक्रान्ता सन्तीति हेतोः सेवा पिधापिताः इत्युल्लिखितम् वर्तते। निर्वाचन आयोगेन कोविड उनविंशति महामारी संक्रमण वर्धनस्य कारणेन अशैव माघ मासस्य द्वादशे दिवसे सम्पत्स्यमाने राष्ट्रिय सभा सदस्यानां निर्वाचने स्वास्थ्य सुरक्षा मापदण्ड अनिवार्य विहितो वर्तते। निर्वाचनं व्यवस्थितं सुरक्षितं च विधातुं नेपाल सर्वकारेण क्रियान्वितं स्वास्थ्य मापदण्डं परिपाल्य मतदाने मतगणना कार्य च संलग्नै सर्वै मतदातृभिः कर्मचारिभिः प्रत्याशीभिः दलानां प्रतिनिधिभिः सुरक्षाकर्मीभिः स्वयंसेवकै अन्यै सम्बद्ध पक्षैश्च पालनीयम्। स्वास्थ्य सुरक्षा सम्बद्धं मापदण्डं स्वीकृत्य च एकविंशति सूत्रीय निर्देशनं क्रियान्वितमिति आयोगस्य सहायक प्रवक्ता कोमल प्रसाद धमला अबोधयत्। स्वीकृतस्य स्वास्थ्य सुरक्षा मापदण्डसानुसारेण राष्ट्रिय सभा सदस्य निर्वाचन निर्देशिकाया अनुरूपं मतदान स्थलं मतदान केन्द्रं च प्रविष्टं प्राप्तानुमतिभिः सर्वाभिः व्यक्तिभिः पूर्ण टीकाकरणाधान प्रमाणं प्रदर्श्य मुखावरणकं सन्धार्य चैव प्रवेशनीयं भवति। राष्ट्रिय सभा सदस्यानां निर्वाचने पालयितव्यं मापदण्डं पूर्णरूपेण परिपाल्य निर्वाचनं सुरक्षितरूपेण व्यवस्थिततया च सम्पादयितुं आवश्यक सहयोगार्थं निर्वाचन आयोगेन सर्वे सम्बद्ध पक्षा अनुरुद्धा सन्ति। राष्ट्रिय सभाया निर्वाचनाय नेकपा एमाले दलस्य लोकतान्त्रिक समाजवादी दलस्य च मध्ये सहकार्यं भवति। एमाले दलस्य मधेस प्रदेश समिति अध्यक्षस्य राम अवतार यादवस्य लोसपा दलस्य मधेस प्रदेश समिति अध्यक्षस्य जितेन्द्र सोनल इत्यस्य च मध्ये ह्यः सहमति धारणानन्तरं मधेस प्रदेशे परस्परं प्रत्याशिनां सहयोगाय निर्णीतमिति संयुक्त विज्ञप्तौ लिखितं वर्तते। नेपाली कांग्रेस दलस्य सभापतिना प्रधानमन्त्रिणा च शेरबहादुर देउवा विदेन पूर्व सैनिक संघस्य काष्ठमण्डप शाखाया पूर्व सभापति लीलाबहादुर थापा इत्यस्य निधनप्रति दुःखं व्यक्तं वर्तते। नेपाली कांग्रेस दलस्य केन्द्रीय कार्यालयस्य मुख्य सचिवेन कृष्ण प्रसाद पौडेलेन दल सभापति पक्षता गतदिने प्रकाशित शोक विज्ञप्तौ दलस्य ज्येष्ठ राजनीतिज्ञ तात्कालिक धापासी ग्राम विकास समिति सभापति थापा विदस्य निधनप्रति गभीरं दुःखं व्यक्तम् स्थिति उल्लिखित वर्तते। सभापतिना देउवा विदेन स्वर्गीय थापा प्रति भावपूर्ण श्रद्धांजलि समर्प्य तदात्मन शान्ति प्रकम्य च शोक संतप्त परिवार जनेषु स्वस्य दलस्य च पक्षतः संवेदना प्रकटिता अस्ति। पश्चिम दिशा वायु प्रभावेण देशस्य प्राय स्थानेषु अंशतः सामान्य परिवर्तन भूत्वा स्वल्प परिमाणस्य वर्षा हिमपातश्च जायमान सन्तीति जलवायु विज्ञान विभागेन ज्ञापितं वर्तते। पश्चिम दिशा वायु प्रभावेण पर्वतीय क्षेत्रस्य कतिचित् स्थानेषु स्वल्प वर्षाणाम् उच्चै पर्वतीय क्षेत्रेषु स्वल्प हिमपातस्य च सम्भावना स्थिति वरिष्ठ जलवायुविद वरूण पौडेल अवदत। जलवायु प्रणाली अद्यत क्रमेण दुर्बला भवतीति जलवायु विज्ञान विभागो ज्ञापयति। आर्हष्टं शैत्यं वर्धमान स्थिति हेतु एतस्मात् रक्षितुम् आवश्यकं सुरक्षा सावधानताम् अवलम्बितुं च विभागसु सर्वान् अनुरोधे। कतिभिर दिवसै सञ्चाल्यमानाय शीतलहरिया वर्धनेन जनजीवनं प्रभावितं वर्तते। गत पौषमासस्य अष्टादश दिवसतः सहसा शीतलहरिया प्रवणक्रमस्य पश्चात् शैत्य वर्धनेन बालबालिका वृद्धवृद्ध असहाय निर्धना विपन्ना श्रमिकाश्च अत्यधिकं प्रभाविता सन्तीति अस्माकं संवाददातारो ज्ञापयन्ति।